नमस्तर्वेभ्यः अद्य सिद्धान्तकौमुद्याः कारकप्रकरणे त्रिंशः पाठः सेप्टेम्बर् मासस्य त्रयोविंशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारम्बरुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. केन् सम्बडि रीड् औट् द सूत्रस् फ्रम् द कारकाधिकार आफ् द अष्टाध्यायी. सिद्धान्तकौमुद्याम् पञ्चमी विभक्तिप्रकरणम् अनुवर्तयामः. पञ्चमी विभक्तौ आदौ कारकपञ्चमी अधीता, यत्र अपादानसंज्ञा विहिता बहुभिः सूत्रैः. भीत्रार्थ ध्रुवापाये अपादानं, भीत्रार्थानां भयहेतुः इत्यादि पदादिरसोढः बहूनि सूत्राणि. ततः सर्वत्र अपादाने पञ्चमी इत्यनेन पञ्चमी विभक्तिश्च विहिता. ततः परम् उपपदपञ्चमी, यत्र पदान्तरेण योगे पञ्चमी विभक्तिर्विधीयते. तत्रादौ वार्तिकत्रयमासीत्, यतश्च अर्धकालनिमानं ततः पञ्चमी, तद्युक्तादध्वनः प्रथमासप्तम्यौ, कालात्सप्तमी च वाच्या. यतः यस्मादवधेः अध्वनः मार्गपरिमाणस्य कालपरिमाणस्य वा निमानं क्रियते, तस्मात् तस्मादवधेः पञ्चमी. सो फ्रम् वेर् यु मेजर् डिस्टेन्स् आर् टैम् यच् पञ्चमी, तस्य अध्ववाचकस्य प्रथमा भवति अथवा सप्तमी भवति, कालवाचकस्य तु सप्तम्येव भवति. वनात् ग्रामः योजनम् अथवा योजने, वनाद् इति पञ्चमी, काल अध्वनिमानम् इत्यतः अध्ववाचकः योजनशब्दः, योजनम् इति प्रथमा अथवा योजने इति सप्तमी. एवमेव कालवाचकस्य कार्तिक्याः अग्रहायणी मासे, कार्तिक्याः इति अवधेः पञ्चमी, कालवाचकस्य सप्तमी विभक्तिः. ततः सूत्रमासीत् अन्यारात् इतरर्थे रिक्षब्दांशु उत्तरपद आजाहि युक्ते. अन्य आरात् इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि युक्ते. एतैः योगे पञ्चमी विभक्तिर्भवति. अन्य अन्य इति अर्थग्रहणम् इत्युक्तम् अन्य इतर भिन्न इत्यादिभिः योगे, कृष्णादन्यः कृष्णाद्भिन्नः इत्यादि. आरात् आरात् दूरसमीपयोः इति अव्ययम्, सो ग्रामम् आरात्, सो इदर् फार् अवे आर् क्लोस् टु द विलेज् डिपेण्डिङ्ग् आन् द काण्टेक्स्ट्. ऋते इस् विथौट्, सो कृष्णाद् ऋते विथौट् कृष्ण. दिक् शब्द वर्ड्स् विच् इण्डिकेट् डिरेक्षन्स् लैक् प्राक् प्रत्यक् पूर्व, प्राक् प्रत्यक् कम् नेक्स्ट् वन्, सो पूर्व पश्चिम एट्सेट्रा, ग्रामात् पूर्वः ग्रामात् पश्चिमः इत्यादि. अञ्चूत्तरपद, एषु पदेषु अञ्चु धातुः उत्तरपदत्वेन विद्यते, तदेव प्राक् प्रत्यक् इत्यादयः. तेऽपि दिक्शब्दा एव, किन्तु अग्रे षष्ठ्यतसर्थप्रत्ययेन इत्यनेन षष्ठीविभक्तिर्विधीयते. तस्य अपवादत्वेन पुनः पञ्चमीविधानार्थम् अञ्चूत्तरपद आच् आहि इति त्रयाणां ग्रहणम्. सो दक्षिणाग्रामात्, दक्षिणाहि ग्रामात्, प्राक् ग्रामात् इत्यादि. अपपरिवर्तने ततः पञ्चमे विभक्तौ कर्मप्रवचनीयाः अधीताः. अपपरि वर्जनार्थकयोः अपपरि इत्येतयोः कर्मप्रवचनीयत्वं भवति. तथैव आङ् मर्यादावचने, मर्यादा अभिविधिः इत्येतयोरर्थयोः विद्यमानस्य आङ् इति प्रादेः कर्मप्रवचनीयसंज्ञा भवति. पञ्चम्यक्वाङ् परिभिः कर्मप्रवचनीयसंज्ञकैः अप आङ् परि इत्येतैः योगे पञ्चमी विभक्तिर्भवति. अपहरेः samsaraha parihareha samsaraha. So, samsara without hari. And ang in madhyada and abhivithi. Like a balebhyaha hari bhaktihi. A muktehe samsaraha. Ityadi. And then one more case of parmaprosaniya is pratihi pratinidhi pratidanayoho. Pratinidhi as a substitute for something, or pratidana, returning something which was taken. So, anayor arthayohu prati ityetasya karmaprosaniyatvam bhavati. Tatra cha panchami vibhaktihi. Pratinidhi pratidane cha yasmat iti sutrena panchami vibhaktihi. Krishnat prati pradyumnaha. So, pradyumna is a substitute for Krishna. Sadrishyam ityarthaha is very similar to Krishna. Pratidana. Tilebhyaha pratiyachyati mashan. He has taken tilas. He is returning them back in the form of masha. So masha equal to the value of tila is being given by pratidanam. So in both these cases, there is panchami. Okay. So apang parivihi panchami. Tathaiva pratinati pratidanecha panchami. Okay, panchami yukhti. So agre upapada panchami prakaranam anuvartate. Akartarinaya panchami. Akartari rine. So tatra yan sandhau. Akartarine iti bhavati. Vacharaneka klesheva. Akartari rine panchami. Ityeva sulabham. Padatrayam. Hetau iti anuvartate. Kartrivarjitam yadrinam hetu bhutam. Tatas panchami syat. Vastutaha hetu vachakasya ka vibhaktihi. Which is the normal vibhakti for hetu. Tritiya. Kena sutrena. Hetau iteva sutramasti. Adaha hetu vachaka tritiya vibhakti bhavati. Annena vasati. Dhanena kulam ityadi. Dandena ghataha. Bahuni dharanani. Atra hetu bhutam runam, if the loan taken is a hetu, then we have panchami vibhakti. Tasmat panchami vibhaktir bhavati. Okay. Hetu is of two kinds. One is the normal hetu, karanam ityarthe hetu iti bhavati. Tatprayojako hetuscha ityapi asti. Svatantrah karta tatprayojakah hetuscha. So the karta eva prayojakaha. Yadi prayojaka karta taseva hetu samnya api asti. Okay, so in a nijanta prayoga, the causal agent is also called a hetu. Okay. So here runam hetu bhutam kidrisham kartruvarjitam. Yada karta na bhavati, arthat it is not the karta but only the hetu. Vartha karanam ityarthe. Rinam karanam ityarthe. Tasya tasmat panchami bhaktir bhavati. Shatad baddhaha. Tasi. Kashtana deva dattaha baddhaha. Kim karanam shatam rinatvena svikrutavan. Na pratyarpitavan. Ataha bandhanam praptavan. So he took 100 whatever varahas as loan and he did not return it back. So he was imprisoned. Atra bandhanasya hetuhu karanam shatam. Hetu bhutam, ataha hetau iti tritiyayam praptayam, rune panchami, nanamachakasya panchami vibhakti bhavati, ityanena panchami, shatad baddha iti vyakhyane. Niyamita kale pratyarpana bhave sati. Suvarnadi shatena runena hetuna adhavarnaha baddhaha ityarthaha. Niyamitakale pratyarpanabhave sati. So, if not returned in the stipulated time, suvarnadi shatena runena hetuna. So, because the reason of loan of 100 gold coins, adhavarnaha baddhaha, uttamarnaha adhavarnaha drishtam, yaharinam dadati saha uttamarnaha, yaharanam svikaroti saha adhamarnaha. Hetu tatiya apavadaha. So, hetau iti tatiyayaha apavadam apavadabhutam idam sutram. अकर्तरि किम्? अकर्तरि ऋणे इत्यस्ति, ऋणे पञ्चमी इति अवगतम्, अकर्तरि इति किमर्थम्? शतेन बन्धितः इति प्रयोगः, बन्धितः इति निजन्तप्रयोगः, बद्धः बन्धितः, कथं शतेन बन्धितः इति, अधमर्णः उत्तमऋणेन इति शेषः. बन्धेः हेतुमन्यन्तात् कर्मणि कृतः, बन्धितः इत्यत्र बद्धधातुः बन्धधातुः हेतुमन्यन्तः, तस्मात् क्तप्रत्ययः, बन्धितः, केवलधातोः त्वप्रत्यये बद्धः इति भवति, अत्र तु बन्धितः. अधमर्णः उत्तमर्णेन बद्धः इति अण्यन्तस्य अर्थः. शुद्धधातोः प्रयोगे उत्तमर्णेन अधमर्णः बद्धः, उत्तमर्णः अधमर्णं बध्नाति. So the Uttamarna imprisons the Adhamarna. Shatena runena prayojaka kartra. Uttamarnena prayojaka kartra. Bandhanam karitaha adhamarnaha iti nyanta syarthaha. Nyanta prayoge kathamhavati. Shatena uttamarnena adhamarnaha bandhitaha. So shatena shatam iti prayojaka kartra. Arthas hetuhu. Tat prayojako hetu shtetanena hetu samyasti. So shatena the 100, the loan of 100 coins, gold coins, caused the Adhamarana to be imprisoned by the Uttamarana. So, Shata here is the causal agent, Hetu, Prayojaka Karta and the Hetu. So, Shatena Rinena Prayojaka Kartra, Uttamaranena Prayojaka Kartra, Bandhanankaritaha Adhamarnaha iti Anyantasyarthaha. Atra Shatam Rinam प्रयोजकत्वात् कर्तृसंज्ञं हेतुसंज्ञं च, तत्प्रयोजको हेतुश्च इत्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात्. सो हि इस् बोत् द कर्ता एण्ड् द हेतु. ततश्च शतशब्दात् कर्तरि तृतीयां बाधित्वा अपवादत्वात् पञ्चमी स्यात्, अतः अकर्तरि इत्युक्तम् इति भावः. सो टु प्रिवेण्ट् तृतीया फ्रम् सोरि टु प्रिवेण्ट् पञ्चमी फ्रम् आपरेटिङ्ग् हियर् we have akartari rane panchami, akartari, the word akartari in the sutra. Shatasya hetutvepi kartrutvad na tatah panchami iti bhavah. Agriyam sutra masti vibhasha gune striyam. विभाषा गुणे अस्त्रियाम् इति त्रीणि पदानि. हेतौ इति अनुवर्तते, अकर्तरि ऋणे पञ्चमी इत्यतः पञ्चमी इत्यपि अनुवर्तते. गुणे हेतौ अस्त्रीलिङ्गे पञ्चमी वा स्यात्. सो अयमपि हेतुतृतीयापवादः. गुणे हेतौ यत्र गुणवाचकशब्दः हेतुभूतः अर्थात् कारणभूतः. सो हियर् हेतु इस् द कारण. अस्त्रीलिङ्गे, सो वेन् दट् गुणवाचक इस् नाट् इन् स्त्रीलिङ्ग. सो अस्त्रीलिङ्गं गुणवाचकं यदा हेतुभूतं तस्मात् पञ्चमी विकल्पेन भवति विभाषा. सो पञ्चमी यदा न भवति तदा तृतीया, हेतौ इत्यनेन तृतीया, अतः तृतीया अपि भवितुमर्हति पञ्चम्यपि. जाड्यात् जाड्येन वा बद्धः. सो जाड्यं, जडस्य भावः जाड्यं. जाड्य इस् लेज़िनेस्. सो इट् इस् अ गुणवाचक एण्ड् इट् इस् द हेतु, द रीज़न् फार् हिस् इम्प्रिसन्मेण्ट्. हि वास् इम्प्रिसन् बिकास् आफ़् हिस् लेज़िनेस्, ऐ मीन् बिकास् हि डिड् नाट् डू समथिङ्ग्, बिकास् ऐ मीन् इट्स् नाट् जस्ट् हि वास् इम्प्रिसन् बिकास् ऐ मीन् हि वास् लेज़ि, बट् ऐ मीन् समथिङ्ग् एल्स् बेस्ड् आन् द काण्टेक्स्ट्. सो जाड्यात् जाड्येन वा बद्धः. अत्र गुणवाचकत्वमस्ति स्त्रीलिङ्गं न, जाड्यम् इति नपुंसकलिङ्गं न स्त्रीलिङ्गम्, अतः विकल्पेन पञ्चमी, पञ्चम्यां जाड्यात् बद्धः इति, अथवा हेतौ इति तृतीयायां जाड्येन बद्धः इति वा भवति. गुणे किं, गुणवाचकमेव भवेत् इति किं? धनेन कुलम्. सो द कुल, द फ्यामिलि exists because of the money. They prosper because of the money. Dhanena kulam ityasti. So dhanam iti hetavachakam natu gunavachakam. It is a dravya. Dhana is a dravya and not a guna. Therefore, you do not have panchami optionally. Astriyam kim gunavachaka shabdascha strilinge na bhaved ityasti. Buddhya muktaha. He was released by his intelligence. So buddhya muktaha, buddhi ityasti, buddhi shabdaha, strilinge, gunavachakaha, kintu strilinge asti, ataha kim na bhavati, panchami vibhakti na bhavati, hetau ityaneina tritiya buddhya muktaha. So this is the normal case if you go by the words of the sutra. But what we see actually is kvachit strilinge api panchami vibhaktir bhavati, kvachit gunavachakasya api agunavachakasya artha dravyavachakasya api vikalpena panchami drishyate. So for that vibhasha iti yoga vibhagat agune striyam cha kvachit. So in some cases, even if it is not a gunavachaka, and even if it is in strilinga, we do see panchami vibhakti. Ataha kim kriyate, vibhasha iti yoga vibhagaha kriyate. So the sutra is split. Vibhasha is one sutra. Gune astriya iti aparam sutram. So vibhasha iti yoga vibhagaha. Kortaha yoga vibhagat iti. So tatah purvam jadyaditi jarasya bhavo jadyam. Gunavachana brahmanadibhyah karmani chayati shyai. Nanu dhumad agniman ityadav katham panchami. Dhumadehe agunatvad ityata aha. So a very very famous example. Parvato vanhiman dhumat. Right. So a very, the most popular and standard example of Nyaya Shastra. So parvataha vanhiman dhumat. So we can assume that a fountain has fire because of the, by seeing the smoke. Tatra dhumaha hetuhu. Sasmat panchami vibhakti krita. Kintu dhumaha na gunavachakaha. It is not a guna. Dhuma is a dravya. It is an actual substance. Right. So katham tatra panchami vibhakti iti prashnaha. Ataha agune kvachit. Agune gunavachaka. Gunavachakam nachedapi kvachit panchami vibhaktir bhavati. Tathaiva striyam iti yoga vibhaga iti vibhasha iti yoga vibhajyate. Hetau iti anuvartate panchami iti cha. Hetau panchami vasyat ityarthaha. So when you split the sutra, the first sutra, this vibhasha will mean that a hetavachaka will optionally have panchami vibhakti. Tatascha dhumadagniman ityadi siddham. So by that you can substantiate prayogas like dhumadagniman. Tataha gune astriyam iti. So idaniam dvitiyam sutram asti gune astriyam. Vibhasha gune astriyam iti ekam sutram vibhajyate. Tatra prathamaha bhagaha vibhasha iti. Dvitiyastu gune astriyam iti. Tataha gune astriyam iti. Tatra vibhasha ityanuvartate panchami iti cha. Gune hetau astrilinge panchami vasyat ityarthaha. So nanu vibhasha ityeva siddha tatashcha jagyad baddhaha ityadi siddham. Nanu vibhasha ityeva siddhe gune astriyam iti vyartham ityata aha. So then if you are doing this, I mean by just by vibhasha, in all cases you have an optional panchami. Why do we need gune astriyam? Question. So he says yoga vibhagaha sarvada ishta siddhyarthaha. Right? Yoga vibhagaha ishta siddhyarthaha ataha agune astriyam cha kvachit. Yatra shishta prayoga drishyate gunavachakat agunavachakat panchami strilinga gunavachakat panchami tatra tat samarthanartham vibhasha iti yoga vibhagaha kintu yoga vibhagaha sarvatra anumanyate. So you cannot apply sutra obtained by yoga vibhaga everywhere. So in normal cases we use vibhasha gune striyam to make sure that a gunavachaka which is not strilinga will always have an optional panchami vibhakti form. Okay? So if it is not a gunavachaka or if it is in strilinga, in certain cases there is panchami vibhakti. Dhumad agniman iti अगुण इत्यस्य उदाहरणम् धूमः द्रव्यवाचकः न तु गुणवाचकः तत्रापि पञ्चमी विभक्तिः दृश्यते स्वधूमादिति अग्निमान् इत्यनन्तरं ज्ञायते इति शेषः धूमस्य अग्निज्ञानहेतुत्वात् अत्र धूमस्य अगुणत्वेऽपि हेतुत्वात् ततःपञ्चमी इति भावः नास्ति घटः अनुपलब्धेः इदमपि न्यायशास्त्रादेव घटः नास्ति सो देयर् इस् नो घट अनुपलब्धेः बिकास् यु डोण्ट् हाव् इट्स् ज्ञान ज्ञानं नास्ति इत्यतः घटः नास्ति इति अनुमानम् सो दिस् इस् आल्सो एन् अनुमानम् सो इन् आल् अनुमानस् आफ् न्यायशास्त्र यु हाव् पञ्चमी विभक्ति सो इन् सम् केसस् द हेतु टर्न्स् औट् टु बि नाट् अ गुण दट् इस् अ द्रव्य आर् इट् टर्न्स् औट् टु बि इन् स्त्रीलिङ्ग सो इन् इवन् दोस् केसस् देर् इस् पञ्चमी विभक्ति नास्ति घटः अनुपलब्धेः सो नास्ति घटः इति घटः इत्यनन्तरं ज्ञायते इति शेषः उपलब्धिः नाम ज्ञानम् सो इट् इस् नालेज् तस्याः अभावः अनुपलब्धिः नैतत्पुरुषः स च अर्थाभाव न च अर्थाभाव्यविभावशक्यः तयोः विकल्पस्य लक्ष्यमाणत्वात् सो दट् इस् रिगार्डिङ्ग् द समास बट् अनुपलब्धि इस् not avyayibhava, that is, it is not an avyaya and not, this it is, strilinga, na upalabdhihi, anupalabdhihi, iti tatpurusha samasaha, ataha, tatpurushe paramlingam, iti ataha, strilingam. So, strilingasyaapi, kvachit, kvajideva, panchayivakti, drishyate. So, yatra drishyate, tatra vibhasha, iti yoga vibhaga, sadhyate. So, but normal rule is, it should be a gunavachaka and it should not be in strilinga for us to use panchami. So, to be safe, it is always better to use tritiya for hetu. Okay. So, the next sutra. Prithagvina nanadhis tritiyanya tapasya. Yes? There's another question. No, no. Gude astriya. Yeah, vibhasha, sarvatra. Hetau vibhasha, panchami vibhasha. Hetau iti anuvartate, panchami iti anuvartate. Hetau panchami vibhasha, panchami iti asti anuvartate. Hakartari nai panchami iti ataha. There are no conditions at all, so anything. Any hetu can have panchami vibhakti optional. Any other questions? Prithag inan anabhisthritiya anyatarasyam iti agrimam sutram patrini padani santi prithag vina nanabhihi तृतीया अन्यतरस्याम् अपादाने पञ्चमी इत्यतः पञ्चमी इत्यनेन वर्तते एनपा द्वितीया इति मध्ये सूत्रमस्ति अनन्तरं पठ्यते सो तेन द्वितीया इत्यपि अनुवर्तते सो पृथक् विना नानाभिः एतैः शब्दैः योगे तृतीया विकल्पेन भवति तस्य अभावे पञ्चमी पक्षे पञ्चमी भवति द्वितीया अपि भवति ओके सो योगे तृतीया स्यात् पञ्चमी द्वितीये च सो इन् असोसियेशन् वित् दीस् वर्ड्स् यु केन् यूस् एनी आफ् द त्री विभक्तिस् पृथग् विना नाना सो विना इट् इस् वेरि फेमस् यु केन् यूस् जलं विना जलेन विना जलाद्विना सर्वं साधु पञ्चमी द्वितीये चेति सो कथं पञ्चमी द्वितीये इति लभ्यते सो वाट् द सूत्र सेस् इस् तृतीया अन्यतरस्यां विकल्पेन तृतीया भवति इत्यर्थः सो पञ्चमी द्वितीये चेति तृतीयाभावपक्षे इति शेषः यत्र तृतीया न भवति तदा पञ्चमी द्वितीये च अपादाने पञ्चमी षष्ठ्यतसर्थप्रत्ययेन येन वा द्वितीया पृथग्विना नानाभिः इति सूत्रक्रमः सो दट् इस् द आर्डर् आफ् सूत्रास् इन् दष्टाध्यायी तत्र षष्ठी इति अस्फटितत्वात् नानुवर्तते सो इफ् यु लुक् एट् दट् देर् इस् अपादाने पञ्चमी पञ्चमी देन षष्ठी अथ सप्तप्रत्ययेन एनपा द्वितीया पृथग्विनानामपि तृतीया सो फोर विभक्तीज आर टोल्ड इन अ सीरीज तत्र षष्ठी इति अस्वरितत्वात् न अनुवर्तते स्वरितेन अधिकारः इति सूत्रं यत्र स्वरितत्वयुक्तं पदं तदेव अनुवर्तते इति नियमः षष्ठ्याः स्वरितत्वं नास्ति अतः अनुवृत्तिरपि नास्ति पञ्चमी द्वितीया इति च अनुवर्तते सो वि हेव् अनुवृत्ति आफ् पञ्चमी एण्ड् द्वितीया तथा च तृतीयाभावपक्षे पञ्चमी द्वितीया च इति भावः अन्यतरस्यां ग्रहणं समुच्चयार्थं पञ्चमी द्वितीये च अनुवर्तेते तत्र कः भावः विल् कण्टिन्यू वित् द व्याख्यान हि सेस् ननु तृतीयाभावपक्षे द्वितीया एव सन्निहितत्वात् स्यात् सूत्रं किं सूत्रे किम् उच्यते तृतीया विकल्पेन भवति तृतीयाभावपक्षे किं स्यात् सन्निहितत्वात् सो द वन् विच् वास् प्रीवियस्लि टोल्ड् इस् द्वितीया सो वि केन् हाव् द्वितीया तृतीया आर् द्वितीया How do we get Panchami? Because Panchami was told earlier. Apadane Panchami ityasti, tataha shashtheta sattva pratyayena ityasti, tatra Panchami iti nasti. Okay, so Panchami stopped there. And then again, even in Enapadvitiya, we don't have Panchami. So we are bringing it here by Manduka Pruti. This is what we call a Manduka Pruti, where Anuvritti, it skips a few sutras in between. Okay, it is not the normal course. So, in the normal course of Anuvritti, it should be taken over through each sutra which follows. Now, we are taking Panchami here, skipping two sutras. Kim Pramanam? Iti Prashnaha. So, what is the Pramana for doing such an interpretation? So, he says, Nanu Tritiya Bhava Pakshe Dvitiya Eva Sannihitatvat Syat Natu Panchamyati Shashtyatasartha Ityatra Tadunuvrittehe Abhavat Ataha अत्र पञ्चम्याः समावेशः अनुपपन्नः इत्यत आह अन्यतरस्यां ग्रहणम् इति किमुच्यते अन्यतरस्यां ग्रहणं समुच्चयार्थं पञ्चमी द्वितीये च अनुवर्तेते तृतीया च इत्येतावतैव सन्निहितद्वितीया समुच्चयसिद्धेः अन्यतरस्याम् इति गुरुयत्नकरणं व्यवहितायाः अपि पञ्चम्याः समुच्चयार्थम् अव्ययानाम् अनेकार्थकत्वात् इति भावः सो हि सेस् इफ् यू वाण्टेड् ओन्ली द्वितीया दट् इस् ओन्ली टु विभक्तिस् दट् इस् तृतीया एण्ड् द्वितीया हि कुड् हेव् सेड् पृथग्विना नानाभिस्तृतीया च चकारेणैव किं भवति पूर्वत्र किमुक्तं द्वितीया इत्युक्तं चकारात् द्वितीया अपि समुच्चीयते तृतीया भवति तथा द्वितीया भवति इति वक्तुं शक्यम् तद्विहाय अन्यतरस्याम् इति गुरु यत्र करणम् हि हेज़् पुट् इन् दट् बिग् वर्ड् काल्ड् अन्यतरस्याम् ऐ मीन् हि हेज़् यूस्ड् दट् च एव्रिवेर् ऐ मीन् यु केन् सी अदर् एक्साम्पल्स् इन् द कारक प्रकरण वेन् हि यूसस् जस्ट् चकार फार् समुच्चय आफ् द प्रीवियस् विभक्ति अत्र तु अन्यतरस्याम् इति गुरुयत्नं क्रियते गुरुयत्नः क्रियते तेन किं ज्ञायते असन्निहिता अपि पञ्चमी विभक्तिः अत्र समुच्चीयते सो इवन् दो पञ्चमी इस् नाट् इमिडियेट्लि बिफोर् इट् इस् स्टिल् ब्राट् इन् टु कान्जुगेशन् दट् इस् आल् त्री विभक्तीस् एक्सिस्ट् टुगेदर् सो तृतीया च इत्येतावतैव सन्निहितद्वितीया समुच्चयसिद्धेः अन्यतरस्याम् इति गुरुयत्नकरणं व्यवहितायाः अपि पञ्चम्याः समुच्चयार्थम् अव्ययानाम् अनेकार्थकत्वात् सो अव्ययस् लैक् दिस् केन् बि यूस्ड् इन् वित् मेनि पर्पसस् एण्ड् दिस् इस् वन् आफ् द पर्पस् इन् दिस् केस् ननु पञ्चम्याः षष्ठ्यतसर्थ इत्यत्र अननुवृत्तायाः इह अनुवृत्तेः असम्भवात् कथमिह तदुपस्थितिः सो दिस् इस् द क्वश्चन् सो दशपादाने पञ्चमी इन् बिट्वीन् दर् आर् टु सूत्रस् षष्ठतसप्तत्वेन एण्ड् एनपादितीय इन् विच् यु डु नाट् हाव् द अनुवृत्ति So, how can you bring back the anuvritti here? Ityataha panchami dvitiye cha anuvartete manduka plutya. So, this is seen in many cases, even though it is not normally accepted. So, in special cases, we do have this manduka pluti, where it skips a few sutras, the anuvritti. सो उदाहरणम् अस्ति पृथक् रामेण रामात् रामं वा सो सेपरेट फ्रॉम और अदर देन राम इत्यर्थे रामेण इति तृतीया रामात् तस्याः अभावे तृतीयायाः अभावे रामाद् इति पञ्चमी रामं इति द्वितीया वा सो ऑल दीस थ्री आर करेक्ट एवं विना नाना सत्रापि तेन विना तं विना तस्माद् विना साधु नाना इत्यपि अस्ति सो विनार्थकत्वमेव सो नाना इस् आल्सो यूज्ड् इन् द सेम् सेन्स् एस् विना समानार्थकत्वम् अस्ति अग्रिमं सूत्रमस्ति करणे च स्तोकाल्पकृच्छकतिपयस्यासत्त्ववचनस्य करणे च स्तोक अल्प कृच्छ कतिपयस्य असत्त्ववचनस्य पञ्चमी इति वर्तते अन्यतरस्य इत्यपि वर्तते एभ्यः अद्रव्यवचनेभ्यः तृतीया पञ्चम्यौ स्तः taking anuvritti of only panchami here okay so ebhyah adravya vachanebhyah stoka alpa krichya katipaya okay adravya vachanebhyah asatva vachanam sadayo satve ityapi drishtam asatve satvam nama dravyam okay so dravyam is material or matter so adravya vachanasya so when they do not indicate something which is actual matter something abstract so tada करणे करणवाचकस्य तृतीया भवति पञ्चमी च भवति अतः अनेन सूत्रेण पञ्चमी विभक्तिर्विधीयते तदभावे कर्तकरणयोः तृतीया इत्यनेन तृतीया विभक्तिः भवति स्तोकेन स्तोकाद्वा मुक्तः इति उदाहरणं स्तोकं नाम किञ्चित् लघुना आयासेन मुक्तः वित् लिटिल् एफर्ट् हि वास् रिलीस्ड् वित् लिटिल् एफर्ट् वेरि लिटिल् एफर्ट् स्तोकं मीन्स् संथिङ्ग् विच् इस् वेरि लिटिल् सो हियर् It refers to effort. Stokam ityasya shramaha athava ayasaha ityena anvayaha ayasaha na dravyam. Effort is not matter. Okay? It's a quality. Ataha stokena stokadva vikalpena panchami vibhaktir bhavati tritiya athava panchami stokena muktaha karane tritiya aneya sutrena panchami stokat muktaha dravyetu But if it refers to something which is material, it is a matter. So, dravyetu stokena vishena hataha. He was killed with little poison. So, it was a very potent poison. So, only a little of it sufficed. So, stokena vishena ityasti. Atra visham dravyam. Since visha is dravya sattva vachana, you do not have panchami. It's only tritiya. Karane tritiya bhakti bhavati. Stokena vishena hataha. एवमेव स्तोक अल्प कृच्छ कतिपय सो अल्पेन अल्पाद्वा मुक्तः द सेम् सेन्स् वित् लिटिल् एफोर्ट् कृच्छेण कृच्छाद्वा मुक्तः कृच्छ्रं नाम कष्टं वित् ग्रेट् डिफिकल्टि ओके सो कृच्छेण कृच्छाद्वा मुक्तः कतिपयेन कतिपयाद्वा मुक्तः सो अगेन् द सेम् कतिपयेन इस् वित् लिटिल् तत्रापि स एव अर्थः कतिपयेन कतिपयाद्वा मुक्तः अकृत्स्नेन साधनेन सो संथिङ्ग् विच् इस् सम् साधन विच् इस् नाट् कम्प्लीट् वित् अ लिटिल् अ पार्ट् आफ् इट् सो तेन वा मुक्तः सो सर्वत्र यत्र असत्त्ववचनं तत्र पञ्चमी विभक्तिः विकल्पेन भवति यदि सत्त्ववचनं तर्हि तृतीयैव दूरान्तिकार्थेभ्यो द्वितीया च त्रीणि पदानि सन्ति दूरान्तिकार्थेभ्यः द्वितीया च एभ्यः द्वितीया स्यात् चात् पञ्चमी तृतीये च सो दूर अन्तिक एभ्यः इति दूरार्थकेभ्यः अन्तिकार्थकेभ्यश्च इत्यतः सो वर्ड्स व्हिच मीन फार और नियर दूरार्थकेभ्यः अन्तिकार्थकेभ्यश्च चकारः व्यवहितयोरपि पञ्चमी तृतीययोः समुच्चयार्थः न तु दूरान्तिकार्थैः षष्ठ्यन्नतरस्याम् इति सन्निहितषष्ठ्याः अपि व्याख्यानात् सो इन् आल् दीस् सूत्रस् वेर् देर् इस् चकार एण्ड् देर् इस् विभक्तिसमुच्चय व्याख्यानमेव शरणं टु एक्चुली डिसैड् वाट् आर् द विभक्तीस् वाट् आर् आल् द डिफरेण्ट् विभक्तीस् विच् विल् अप्लै सो हियर् वी हाव् द्वितीया पञ्चमी एण्ड् तृतीया ओके नो षष्ठी इवन् दो देर् इस् अ षष्ठीविधायकसूत्र इन् बिट्वीन् सो एभ्यः इति दूरार्थिकेभ्यः अन्तिकार्थकेभ्यश्च द्वितीया विभक्तिः भवति विकल्पेन पञ्चमी तृतीया द सेम् थिङ्ग् विच् वी सा फार् पृथक् विना नाना द्वितीया पञ्चमी तृतीया प्रातिपदिकार्थमात्रे विधिरयम् सो प्रातिपदिकार्थमात्रे एव द्वितीया पञ्चमी तृतीया वा अर्थात् ग्रामस्य दूरम् ग्रामस्य दूरात् ग्रामस्य दूरेण सो फार् अवे फ्रम् द विलेज् सो दूरात् डस् नाट् मीन् फ्रम् समवेर् इट् इस् फार् अवे सो अपादानार्थकत्वं नास्ति केवलं प्रातिपदिकार्थत्वं सो दूरेण ग्रामात् दूरेण इत्युक्ते फार् फ्रम् द विलेज् सो प्रातिपदिकार्थः एव दूरः इत्येव अर्थः दूरं दूरात् दूरेण इति विभक्तित्रये इति प्रातिपदिकार्थमात्रे अयं विधिः अन्तिकम् अन्तिकाद् अन्तिकेन वा सो ग्रामस्य अन्तिकं नियर् द विलेज् ग्रामस्य अन्तिकात् ग्रामस्य अन्तिकेन समानार्थकत्वं प्रातिपदिकार्थमात्रं च असत्त्ववचनस्य इत्यनुवृत्तेः न इह सो करणे च स्तोकाल्पकृत्य कतिपयस्य असत्त्ववचनस्य अस्ति तथा अत्रापि अनुवर्तते सो दूरः पन्थाः ग्रामात् दूरः पन्थाः इत्यस्ति चेत् सो पन्थाः इति सत्त्ववचनं सो द पात् इस् संथिङ्ग् मेटीरियल् सो दूरः पन्थाः इति यदि प्रयोगः तदा एताः विभक्तयः न भवन्ति प्रातिपदिकार्थमात्रे प्रथमा विभक्तिः ग्रामात् दूरः पन्थाः सो ग्रामात् दूरं नगरम् इफ् यु आर् सेयिङ्ग् दट् सो ग्रामात् दूरा नगरी सो यु हाव् ओन्ली प्रथमा विभक्ति इफ् इट् इस् रेफरिङ्ग् टु संथिङ्ग् मेटीरियल् सो इफ् यु आर् जस्ट् सेयिङ्ग् फार् फ्रम् द विलेज् आर् नियर् द विलेज् एण्ड् यु आर् नाट् स्पेसिफैङ्ग् दट् विच् इस् नियर् फार् तदा तु विभक्तित्रयं भवति द्वितीया पञ्चमी तृतीया च सो दिस् इस् द एण्ड् आफ् पञ्चमी विभक्ति पञ्चमीविभक्तिप्रकरणम् अत्र समाप्यते अग्रे षष्ठी विभक्तिः सो पञ्चमी विभक्तौ अपादानपञ्चमी अर्थात् कारकपञ्चमी ततः उपपदपञ्चमी इति वयं दृष्टम् षष्ठीविभक्ति विल् स्टार्ट् नौ षष्ठीविभक्तिः प्रधानतया कारकविभक्तिः न सो षष्ठीविभक्ति इस् नाट् अ प्रिन्सिपल् कारकविभक्ति सो देर् आर् सम् केसस् वेर् वी डू हाव् षष्ठी फार् अ कारक कर्तृकर्मणोः कृति इत्यनेन कर्तृकारकस्य कर्मकारकस्य च षष्ठीविभक्तिः विधीयते तथापि सा प्रधानकारकविभक्तिः न कर्तृकारकस्य तृतीया एव प्रधानविभक्तिः एवं कर्मकारकस्य द्वितीया षष्ठीविभक्तेः प्रधानः अर्थः सम्बन्धः सो षष्ठी इस् यूस्ड् टु इण्डिकेट् रिलेशन् सो षष्ठीशेषे इति षष्ठीविभक्तिविधायकम् अतिप्रधानं सूत्रं द मेन् सूत्र सो बै दिस् सूत्र इट् इस् पासिबल् टु डिफेण्ड् षष्ठीविभक्ति आल्मोस्ट् एनिवेर् सो 90% आफ् द केसस् इवन् इफ् इट् इस् कर्म आर् करण आर् एनिथिङ्ग् शेषे इफ् दट् इस् नाट् विवक्षित यु केन् हाव् षष्ठी विभक्ति ओके सो एक्सेप्ट् इन् केसस् वेर् अ स्पेसिफिक् विभक्ति हेस् बीन् टोल्ड् इन् शेष अत्र सम्बन्धार्थे एव विशिष्टा विभक्तिः अर्थात् उपपदविभक्तिः यत्र उच्यते तद्विहाय प्रायेण सर्वत्र षष्ठीविभक्तिः समर्थयितुं शक्या अनेन सूत्रेण बिकास् द सूत्र सेस् षष्ठी शेषे सो इन् द रेस्ट् आफ् द केसस् वी हाव् षष्ठी सो पाणिनि डस् नाट् अटेम्प्ट् टु डिफैन् द केसस् वेर् वी हाव् षष्ठी हि डिफैन्स् एव्रिथिङ्ग् एल्स् एण्ड् सेस् फार् द रेस्ट् शेषः उक्तादन्यः शेषः So that other than what has already been defined or specified is Shesha. So Shesha Shashti. So in the rest of the cases, whatever remains, we have Shashti Vibhakti. Shashti Shesha iti padadvayam uktadanya Shesha. Karaka pratipadikartha vyatiriktaha swaswami bhavari sambandha Shesha. Tatra Shashti Sya. So kim uktam iti prashnah. So what has been told? Karakani uktani. So he has already defined all karakas, that is vibhakti is in relation to karakas. And pratikarikarthe prathama ittipi uktam. So in the rest of the cases, so what is the rest? Is sambandha. So that is relation is what is left out. So swaswami bhavadi sambandha. So there are many kinds of relations between any two things. So, like Swaswami Bhava, that is one of the cases, that is belonging. So, Mama Pustakam. Saham Swami Idam Mama Swaha. So, this is my belonging. Ityarthe. Sambandha. So, there are many other kinds of Sambandha. So, Mama Putraha. Ityarthe. Janya Janaka Bhava Sambandha. So, there are many other kinds. Okay. So, in all these cases of relations, we have Shashti Vibhakti. So, Valamanoramayam, Shashti Sheshe, Uktadanya Sheshaha, Kimuktam, Karmani Dhritiya, Ityadi Sutreshu, Dhritiyadi Vidhishu, He, Karma, Kartra, Karana, Sampradana, Apadana, Adhikarana Karakani, Anukrantani. So, this is 2350. So, before this, in the Vibhakti Vidhayaka Sutras, we have Vibhaktis related to particular Karakas. So, the six karakas. Karma, kartra, karana, sampradana, apadana, adhikarana. Prathama vidhau, pratiparikartha, anukramtaha. So, pratiparikartha has been covered in prathama vibhakti. Ete bhyaha anyaha. So, other than these. Swaswami bhavadi sambandhaha, shesha padarthaha, ityarthaha. Tatra asati badhake, sambandhaha, vishesha rupayana, samanya rupayana, sabhasate. So, generally, sambandha can be samanya. So, that is just a relation. And there is a vishesha. What kind of a relation? So, like swaswami bhava, janya janaka bhava, or pratipadya pratipadaka bhava, and so on. There are many different kinds of relations. So, both these samanya, sambandha samanyam, sambandha visheshaha, ityubhayam, shashtya pratiyate. So, both relation in general and a specific kind of relation, both of these are given by Shashti Vibhakti. Tatra asati badhake, sambandhaha vishesha rupayana samanya rupayana cha bhasate, nahi nirvishesham samanyam iti nyayat. Because samanya, a general thing cannot exist without its specific thing. Okay. General is something which is the common factor in many things, but it cannot exist on its own. Say, for example, there is gotva, the property of cowness, okay, being a cow. So even though we call it the samanya, it cannot exist on its own. You cannot point out just gotva without a particular cow. So it can exist only in association with a particular cow. So, nahi nirvishesham samanyam. So what we call a samanya or a general property cannot exist unless it is associated with a specific manifestation of that samanya. So therefore, generally, asati badhake, unless there is some badhaka for that specific relationship, sambandhaha vishesha rupayana samanya rupayana cha bhasate, nahi nirvishesham samanyam iti nyayat. Satitu badhake, but in some cases, say for example, matu smarati. So mataram smarati, he remembers the mother. Matra sambandhi smaranam. So there, the specific kind of relation is the vishayata, where it becomes the karma. Okay, the specific kind of relation, if it is intended, it will become the karma. So if it is not intended, sambandha samanye shashti. So only the shashti only indicates relation, sambandha samanya, not any particular vishesha. So but generally both samanya sambandha samanya and a vishesha, a particular kind of sambandha, is indicated by shashti. Okay. So, the rest will skip for now, the Vyakhyana. So, you can read it up if you are interested. If you have any questions, you can ask me. Rajya Purushaha, उदाहरणं दीयते राज्ञः पुरुषः राजा स्वामी तस्य पुरुषः इत्यर्थः सो द सर्वेंट ऑफ द किंग तत्र राज पुरुषयोः संबंधः विवक्षितः सो देयर इज नो कारक रिलेशन व्हिच इज इंटेंडेड एंड नॉट द प्रातिपदिकार्थ सो संबंधे राजशब्दात् षष्ठी विभक्तिः भवति पुरुषः स्वः राजा स्वामी सो स्वस्वामी भाव संबंधे विवक्षिते षष्ठी विभक्तिः कर्मादीनामपि संबंधमात्र विवक्षायां षष्ठ्येव सो वेरी इंपॉर्टेंट इवन व्हेन कर्म समथिंग व्हिच इज कर्म If the karma, that is the karakatva is not intended, karaka is kriyajanaka, okay, that which wins about the action. So if the property of kriyajanakatva is not intended, and if only sambandha, sambandha matra vivakshayam, shashti vivaktireva bhavati, vivakshatah karakani bhavanti, iti sadharana niyamaha. Okay. So karma dinam api, iti. कर्मत्व कर्तृत्वादीनामपि संबंधत्व सामान्यात्मना विवक्षायाम् यत्र संबंध सामान्यं विवेक्षते तत्र षष्ठ्येव न तु कारक विभक्तयः इत्यर्थः तथा च तस्य च वर्तमाने इति सूत्रे भाष्यं कर्मत्वादीनाम् अविवक्षा शेषः सो व्हेन इट इज नॉट इंटेंडेड टू कन्वे रिलेशंस लाइक स्पेसिफिक रिलेशंस लाइक कर्म और कारण और कर्ता सो इट बिकम्स शेष उक्तादन्यः अतः षष्ठी विभक्तिर्भवति सतां गतम् सद्भिर्गतम् इत्यर्थः सतां गतम् इति भावेक्तः सत्सम्बन्धि गमनम् इत्यर्थः कर्तृत्वविवक्षायां तु ओके सो वेन् इट् इस् एक्चुअलि द कर्ता सद्भिः गमनं गतम् इति तृतीया भवत्येव सो कर्तृत्वविवक्षायां तृतीया तदविवक्षायां संबंध सामान्ये सत्संबंधी गमनम् इत्यर्थे षष्ठी विभक्तिः भवति उद्योग लक्षणा षष्ठी तु न भवति न लोकाव्यय इति निषेधात् गतम् इति कृदन्तम् सो कर्तृकर्मणोः कृति कृदन्ते कर्तुः कर्मणश्च षष्ठी विभक्तिः इत्यस्ति किन्तु तत्रैव निषेधोऽपि अस्ति न लोकाव्यय निष्ठा कृत क्रवतु इत्यनयोः षष्ठी विभक्तिर्न भवति इति अतः कृद्योगलक्षणा षष्ठी न भवति शेषष्ठी तु भवति सर्पिषो जानीते इति करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः सो वी विल सी ऑल दीज एग्जाम्पल्स लेटर अगेन बिकॉज देयर आर द स्पेसिफिक सूत्रास सो ही एक्ट्स बिकॉज ऑफ द सर्पी दैट इज ही गोज फॉर means in a particular place exclusively out of desire for ghee sarpihi nama ghritam ityartha satra janite iti na jnanarthakatvam it is not used in a sense of jnana but in sense of pravritti so to do something for it satra sarpisha iti karanatvasya avivakshaya shashti bhaktihi sarpisho janite karanatve tu sarpisha janite iti bhavati करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः करणत्वस्य सम्बन्धत्वविवक्षायां तु षष्ठी कर्त्राश्रिता सर्पिस्सम्बन्धिनी प्रवृत्तिः सो द सम्बन्ध इस् इण्डिकेटेड् इन् द शब्दबोध मातुः स्मरति मातरं स्मरति इत्यर्थः सो हि रिमेम्बर्स् द मदर् कर्मत्वं सो तस्य अविवक्षायां कर्मत्वविवक्षायां मातरं स्मरति इत्यर्थः कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणम् सो इफ् इट् इस् मातरं स्मरति इट् विल् बि मातृकर्मकं स्मरणम् वेरस् दिस् इस् मातृसम्बन्धि स्मरणम् देवदत्तकर्तृकं मातृसम्बन्धि स्मरणम् इत्यर्थः एधोदकस्य उपस्कुरुते उपस्कुरुते सो एधोदकस्य सो सी द व्याख्यान अगेन एध शब्दः अकारान्तः पुल्लिङ्गः सो एध इस् ऑफ टू काइंड्स देयर इज एन अकारान्त एज एधः एधौ एधाः लाइक रामः रामौ रामः देयर इज आल्सो ए सकारान्त एधः एधसि एधांसि लाइक मनः मनसि मनांसि ओके सो इन बोथ केसेस दिस प्रयोग इज सीन एधः एधा मीन्स फ्यूएल Okay, ethas is for the twigs which are used as fuel, wood. Etha shabdaha akarantah pullingaha. Karake iti sutre, ethaha pakshyante iti bhashya prayogat. Ethascha udakanicha iti dvandvat shashti. Okay, datera praninam ittyeka udhavaha. Karmatya vakshayam, ethodakam, shoshana gandhadravyadhanadina parishkurute ittyarthaha. Upaskurute is to refrain. So, ethodaka is... Stop here. My daughter is crying and it's time. So this will take some time. So I will continue from here tomorrow. Okay, any questions? No? Yenakshara samam naya madhigamya maheshwara atvastam yakaranam proktam tasmai panina ye namaha. Mavitraya namaskrutya tadukti parivhavyacha vayyakarana siddhanta kaumariyam virachyate. Thank you. I'm sorry for the abrupt stop.